श्री राम रक्षा स्तोत्रम। हे स्तोत्र विशेषतः संध्याकाळी देवापुढे बसून हातात अंगारा घेऊन म्हणतात, आणि म्हणून झाल्यावर हातातील अंगारा घरातील सर्व माणसांना लावतात। श्री गणेशाय नमः। अस्य श्री राम रक्षा स्तोत्र मंत्रस्य बुधकौशिक ऋषि श्री सीता रामचंद्रो देवता अनुष्टुप छंदः श्री सीता शक्तिः श्रीमद् हनुमान कीलकम् श्री रामचंद्र प्रीत्यर्थे जपे विनियोगः अथ ध्यानम् ध्यायेदाजानुबाहुम् धृतशरदनुषम् बद्धपद्मासनस्थम् पीतं वासो वसानम् नवकमलदलस्परदिनेत्रम् प्रसन्नम् वामाङ्कारूढसीता मुखकमलमिलल् लोचनम् नीरदाभम् नानालङ्कारदीप्तम् दधतमुरुजटा मण्डनम् रामचन्द्रम् इति ध्यानम् चरितम् रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् पूसाम् महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामम् रामम् राजीवलोचनम् जानकी लक्ष्मणोपेतम् जटामुकुटमण्डितम् सासीतूणधनुर्बाण पाणिन्नक्तम् चरान्तकम् स्वलीलया जगत्रातु माविर्भूतमजम् विभुम् राम रक्षाम् पठेत् प्राज्ञः पापघ्नीम् सर्वकामदाम् शिरो मे राघव पातु भालम् दशरथात्मजः कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती घ्राणम् पातु मुखत्राता मुखम् सौमित्रिवत्सलः जिह्वाम् विद्यानिधि पातु कण्ठम् भरतवन्दितः स्कन्धौ दिव्यायुध पातु भुजौ भग्नेशकार्मुकः करौ सीतापति पातु हृदयम् जामदग्न्यजित् मध्यम् पातु खरध्वंसी नाभिम् जाम्बवदाश्रयः सुग्रीवेशकटी पातु सक्थिनी हनुमत्प्रभुः ऊरुरघुत्तम पातु रक्षकुलविनाशकृत् जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः पादौ विभीषणश्रीद पातु रामोऽखिलम् वपुः एताम् रामबलोपेताम् रक्षाम् यः सुकृती पठेत् सचिरायुः सुखी पुत्री विजयी विनयी भवेत् पातालभूतलव्योम चारिणश्चद्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितम् रामनामभिः रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् नरो न लिप्यते पापैर्भुक्तिम् मुक्तिम् च विन्दति जगज्जत्रैकमन्त्रेण रामनाम्ना विरक्षितम्। यः कण्ठे धारयेत् तस्य करस्थाः सर्वसिद्धयः। वज्रपञ्जरनामेदम् यो रामकवचम् स्मरे, अव्याहताग्नि सर्वत्र लभते जयमङ्गलम्। आदिष्टवान् यथा स्वप्ने राम रक्षामि माम् हरः, तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः। आरामः कल्पवृक्षाणाम् वीरामः सकलापदाम्, अभिरामस्त्रिलोकानाम् रामः श्रीमान् सन प्रभुः। तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ, पुण्डरीकविशालाक्षौ क्षीरकृष्णाजिनाम्बरौ, फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ, पुत्रौ दशरथस्येतौ भ्रातरौ रामलक्ष्मणौ, शरण्यौ सर्वसत्त्वानाम् श्रेष्ठौ सर्वदनुष्मताम्, रक्षकुलनिहन्तारौ त्रायेतान्नो रघूत्तमौ। आतसज्जदनुषा विशुस्पृशा वक्षयाशुगनिशङ्गसङ्गिनौ, रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम्। सन्नद्धः कवची खड्गी चापबाणधरो युवा, गच्छन् मनोरथोऽस्माकम् रामः पातु स लक्ष्मणः। रामो दाशरथिः शूरो लक्ष्मणानुचरो बली, काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः। वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः, जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः। इत्येतानि जपे नित्यम् मद्भक्तश्रद्धयान्वितः। अश्वमेधाधिकम् पुण्यम् सम्प्राप्नोति न संशयः। रामम् दूर्वादलः श्यामम् पद्माक्षम् पीतवाससम्, स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः। रामम् लक्ष्मणम् पूर्वजम् रघुवरम् सीतापतिम् सुन्दरम् काकुत्स्थम् करुणार्णवम् गुणनिधिम् विप्रप्रियम् धार्मिकम् राजेन्द्रम् सत्यसन्धम् दशरथतनयम् श्यामलम् शान्तमूर्तिम् वन्दे लोकाभिरामम् रघुकुलतिलकम् राघवम् रावणारिम्। रामाय रामभद्राय रामचन्द्राय वेधसे, रघुनाथाय नाथाय सीतायाः पतये नमः। श्रीराम राम रघुनन्दन राम राम, श्रीराम राम भरताग्रज राम राम, श्रीराम राम रणकर्कश राम राम, श्री राम राम शरणं भव राम राम श्री राम चंद्र चरणौ मनसा स्मरामि श्री राम चंद्र चरणौ वचसा गृणामि श्री राम चंद्र चरणौ शिरसा नमामि श्री राम चंद्र चरणौ शरणं प्रपद्ये माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः सर्वस्वं मे रामचंद्रो दयालुर् नान्यं जाने नैव जाने न जाने दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पूरतो मारुतिर्यस्य तन्वन्दे रघुनन्दनम् लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरन्तं श्रीरामचन्द्रं शरणं प्रपद्ये मनोजवं मारुततुल्यवेगम् जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये कूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं भरजनं भवबीजानां मर्जनं सुखसम्पदां तर्जनं यमदूतानां राम रामेति गर्जनम् रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने इति श्री बुधकौशिक विरचितं श्री राम रक्षा स्तोत्रं संपूर्णम्।